ओम श्री कनक धारा स्तोत्र। अंगं हरिः पुलकभूषणमाश्रयन्ति भृगाङ्गनैव मुकुलाभरणं तमालम् अङ्गीकृताखिल विभूतिर्पाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः मुग्धा मुहुर्विद्यधते वदने मुरारे प्रेमत्र पाप्रणीहितानि गतागतानि मालादशोर्मधुकरीयमहोत्पलेया सा मे श्रियं दिशतु सागर सम्भवाय विश्वाम्बरेन्द्रपदविभ्रमदानदक्ष मानन्दहेतुरधिकं मधुवेद्विषोऽपि ईषन्निषिदतु मयि क्षणमिक्षणार्ध मिन्दीवरोदर सहोदरमिन्दिरायः आमीलिताक्षमधिगम्य मुदा मुकुन्द मानन्दकन्दमनिमेषमनङ्गतन्त्रम् आकेकरस्थितकनिनिकपक्ष्मनेत्रम् भूत्यै भवेन्मम भुजङ्गशयाङ्गनायः बाह्यान्तरमधुजीतः श्रितकौस्तुभेया हारावलीव हरिनीलमयी विभाति कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायः कालाम्बुदालिललितोरसि कैटभारे धराधरे स्फुरति या कडिदङ्गनेव मातुः समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायः प्राप्तं पदं प्रथमतः किल यत्प्रभावान् माङ्गल्यभाजि मधुमाथिनि मन्मथेन मय्यात्पतेत्तदिह मन्थरमिक्षणार्धं मन्दालसं च मकरालयकन्यकायः दद्याददयानुपवनो द्रविणाम्बुधारा मस्मिन् किञ्चन विहङ्गशिशौ विषण्ये दुष्कर्म धर्ममपनीय चिराय दूरम् नारायण प्रणयनिनयनाम्बुवाः इष्टाविशिष्टमतयोऽपि यया दयाद्र द्रस्तया त्रिविष्टपपदं सुलभं लभन्ते द्रष्टिः प्रहस्तकमलोदरदीप्तिरेष्टां पुष्टिकृशिष्ट मम पुष्करविष्टरायः गिर्देवतेति गरुडध्वजभामिनीति शाकम्भरीति शशिशेखरवल्लभेति सृष्टिस्थिति प्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरुस्तरुण्यै श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणाणवायै शकत्यै नमोस्तु शतपत्रनिकेतनायै पुष्टयै नमोस्तु पुरुषोत्तमवल्लभायै नमोस्तु नालिकनिभाननायै नमोस्तु दुग्धोदधिजन्मभूत्यै नमोस्तु सोमामृतसोदरायै नमोस्तु नारायणवल्लभायै सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु नान्यं यत्कटाक्षमुपसनाविधिः सेवकस्य सकलार्थसम्पदः सन्तनोति वचनाङ्गमानसै स्वां मुरारि हृदयेश्वरीं भजे सरसीजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीदमयं दिग्धस्तिभिः कनककुम्भमुखावसुष्ट स्वरवाहिनी विमलचारुजलप्लुताङ्गिं प्रातरनमामि जगतां जननीमशेष लोकाधिनाथ गृहिणीं मृताधिपुत्रीं कमले कमलाक्षवल्लभे त्वं करुणापुरतरङ्गितैर्पाङ्गै अवलोक्य माम किञ्चनानां प्रथमं पात्रम कृत्रिमं दयायाः स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयी त्रिभुवनमातरं रमा गुणाधिका गुरुतर भाग्यभागेनो भवन्ति ते भुवि बुधभाविताशया ॐ शान्ति शान्ति शान्ति।